अथ एकविंशः पाठः पञ्चमः खण्डः। अन्यदा सा चलिता, शुकः प्राह। या हि देवि न ते दोषो यदि जानासि भाषितुम्, रत्नादेवीव पत्यातु प्राप्ता जारद्वयान्विता। अस्ति जलौदाभिधानो ग्रामः, तत्र राजपुत्रः क्षेमराजः शूरः। रत्नादेवी तस्य भार्या, तत्रैव ग्रामणीर्देवसाख्यः। तस्य सुतो धवलो नाम, तौ द्वावपि रमेते रत्नादेवीं परस्परमज्ञातौ। अन्यदा पितृपुत्रौ तद्गृहस्थौ, यदा तदा राजपुत्रः समागतः, तदा किम् उत्तरम्? शुक आह ततस्तया कृतसंज्ञो गृहादङ्गुल्या तर्जयन्नयात्, तस्मिंश्चैव गच्छति भयात् पतिः किमिदमित्याह। ततः सा हसन्ती प्राह, अस्य पुत्रस्त्वद्गृहे शरणागतः, मया च नार्पितः, यतः सक्षत्रियत्राणसः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः। वहन् द्वैमप्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम्, अतो रुष्टो व्रजति। गच्छ त्वम् समर्पय सुतम्। तेन च तथा कृतम् इति कथां श्रुत्वा प्रभावती सुत्ता।